एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। स्वास्थ्य जनसंख्या मन्त्रालयेन एतत् विक्रमवर्षीय चिकित्सालय सेवा सुधार कार्यविधि क्रियान्वितोऽस्ति। चिकित्सालयानां सेवां जनमैत्रीं सुलभां च विधातुं कार्यविधि क्रियान्वितोऽस्ति। रोगिणाम् उपचाराभिलेखम् अनुगमनं व्यवस्थितं विधातुम् एकीकृताया वैद्युताभिलेख प्रणाल्या विकास प्रयोगशालाया प्रतिवेदनम् अहोरात्रम् उपलब्धं विधातुं चिकित्सालयस्य औषध विक्री कक्षे समुपलब्धानामेव औषधानां परामर्शन च दातुं निर्दिष्टमस्तीति मन्त्रालयस्य सहप्रवक्ता डा समीर अधिकारी असूचयत्। स्वास्थ्य जनसंख्या मन्त्रालयस्य रविवासरेऽपि बहिरंग सेवाया संचालनस्य निर्देशनानन्तरं नेपाल चिकित्सक संघेन गभीरं ध्यानाकर्षणं सम्भूतमस्तीति निर्णयस्यास्य पुनर्विचाराय याचना विहिता अस्ति। सर्वकारेण शनिवासरे रविवासरे च दिनद्वयस्य सार्वजनिकावकाशस्य व्यवस्थाया अनन्तरं स्वास्थ्य सेवा प्रभाविता न भवेदिति उद्देश्येन स्वास्थ्य जनसंख्या मन्त्रालयेन चिकित्सालयेषु रविवासरेऽपि बहिरंग सेवां संचालयितुम् अनुरुद्धमासीत्। रविवासरेऽपि चिकित्सालयैः स्वकार्यभारानुसारेण बहिरंग सेवां संचालयितुम् अवकाशे वैकल्पिक व्यवस्थां च विधातुं मन्त्रालयेन निर्दिष्टमासीत्। मन्त्रालयस्य निर्देशनानन्तरं संघेन विज्ञप्तिं प्रकाश्य जनशक्तेः अभावस्य अधिक कार्यभारस्य च कारणेन रविवासरे बहिरंग सेवाया संचालनस्य सम्भावना नास्तीति ज्ञापितं वर्तते। सर्वकारेण त्रिभुवनान्तरराष्ट्रिय विमानस्थलसहितेषु आराष्ट्रं विद्यमानेषु विमानस्थलेषु चतुर्विंशति घण्टानाम् अभ्यन्तरे शिशु स्तन्यपानकक्षं शिशु सेवाकक्षं च स्थापयितुं निर्दिष्टमस्ति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयेन विमानस्थलस्य परिमार्जनेन सहैव स्वच्छस्य संरक्षितस्य गोपनीयस्य स्तनपानकक्षस्य शिशु सेवाकक्षस्य च संचालनम् आवश्यकताया अनुसारेण स्तरोन्नतिं रोगिभ्य यात्रिणां विशेषाम् आवश्यकतां च विचार्य प्राथमिक सहयोग कक्षं च स्थापयितुं निर्दिष्टमस्ति। सर्वकारेण शून्य प्रपत्र पोटलिकाभियानम् अस्यैव चैत्रमासस्य त्रिंशत् दिवसात् आगामिनः वैशाखमासस्य सप्तमं दिवसं यावत् सञ्चालयिष्यते। कार्यालयेषु समागतानां पत्राणां कार्यसम्पादनेन शून्यतां विधातुम् अभियानमिदं सप्ताहव्यापी अभियानसञ्चालन सम्बद्धम् एतद् विक्रमवर्षीयं मार्गदर्शनं सार्वजनिकृतमस्ति। कार्यालयेषु पञ्जीभूतानां प्रपत्र पोटलिकानां प्रारब्धानां टिप्पणीयुक्तानां पोटलिकानां विभिन्नेषु स्तरेषु कार्यालयेषु अनावश्यकतया एकस्मिन् स्थाने अवरुद्धानां तेषां कारणेन च कार्यावरोधो भवतीति अभियानमिदं प्रारप्स्यते इति प्रधानमन्त्रिणः कार्यालयेन ज्ञापितं वर्तते। परराष्ट्रमन्त्री शिशिर खनालः निगदति जलवायु परिवर्तनस्य सामुद्र सुरक्षायाश्च समाहोयस्य आपूर्ति श्रृंखलावरोधस्य वर्धमानायाः असमानतायाः कृते न केवलं सहकार्यस्य अपितु सामूहिक दायित्वस्य अपेक्षा विहिता अस्ति। मौरिशस देशस्य पोर्ट लुइस नगरे ह्यस्तन दिवसात् प्रारब्धे नवमे हिन्द महासागर सम्मेलने सम्बोधनं कुर्वन् परराष्ट्रमन्त्री खनालः मध्यपूर्व क्षेत्रे जायमानानां द्वन्द्वानां कारणेन नेपालसहितं समग्रमेव विश्वं प्रभावितमस्तीति अगदत्। मन्त्री खनालः नेपालः संवादानां सहभागित्वेन भूपरिवेष्टित राष्ट्राणां सद्दत्वेन पर्वतानां महासागराणाञ्च सेतुत्वेन कार्यं विधातुं तत्परोऽस्तीति प्रावोचत्। शिक्षा विज्ञान प्रविधि मन्त्रालयेन जनजीवनाम् आन्दोलनस्य क्रमे आहतस्य जनस्य निःशुल्करूपेण चिकित्सा स्नातक कक्षायाः अध्ययनस्य अवसरस्य विषयः अधिनियमस्य विपरीतो नास्तीति स्पष्टीकृतं वर्तते। चिकित्सा शिक्षायोगस्य व्यवस्थायाः अनुसारेण छात्रवृत्तिः योग्यताक्रमं विधेः मानदण्डं चाधृत्य वितीर्यते इति अस्मिन् वर्षे चिकित्सा स्नातक कक्षायाः कृते विद्यार्थिनां चयनानन्तरमपि नियमविपरीतं स्थानं दत्तमिति विरोध सम्भूतः आसीत्। मन्त्रालयेन विज्ञप्तिं प्रकाश्य पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षस्याधिनियमस्यानुसारेण निःशुल्क सामान्य छात्रवृत्तेरपेक्षया विशेष व्यवस्थां विशेष व्यवस्थायाम् अतिरिक्तस्य स्थानस्य तदर्थं वित्तस्य च व्यवस्थापनं विधाय सर्वकारेण निर्णय विहितो स्थिति मन्त्रालयेन स्पष्टीकृतं वर्तते। प्रतिनिधिसभायाः प्रथमेनाधिवेशनेन प्रक्रियागतं कार्यं प्रपूर्य आगामिनः अधिवेशनस्य कृते मार्गः प्रशस्तीकृतोऽस्ति। अधिवेशनेन प्रतिनिधिसभायाः सभामुखपदे उपसभामुखपदे राष्ट्रसभायाः उपाध्यक्षपदे च निर्वाचिताः सन्ति। द्वयोः सदनयोः अधिवेशनस्य अन्तिमे उपवेशे संयुक्तासु एकल समितिषु च सदस्यानां मनोनयनं विहितमस्ति। समितिनां मनोनयनानन्तरम् एताभिः समितिभिः सभापतीनां प्रचयनं विधाय संसदीयो गतिविधि अग्रेसार्यते इति संसद सचिवालयेन ज्ञापितम् अस्ति। आगामिनः वैशाख मासस्य चतुर्थे दिवसे प्रतिनिधिसभायाः समितिनां सभापतिनां निर्वाचनं भविता। प्रतिनिधिसभायाः नवीनायाः नियमावल्याः प्रारूपं निर्मातुं समितिः संघटितास्ति। शुक्रवासरस्य रात्रौ वर्तमानाधिवेशनस्य समाप्तेः अनन्तरम् आगामिनि आयव्ययिकाधिवेशने प्रस्तुष्यमाणानां सर्वकारस्य नीति कार्यक्रमाणाम् आयव्ययिकस्य विधेयकानां च प्रस्तुतेः मार्गः प्रशस्तः सञ्जातोऽस्ति। वैदेशिक वृत्त्युपार्जने आकर्षकस्य सौविध्यस्य प्रलोभनं प्रदर्श्य एकनवति लक्ष्याणां नवति सहस्राणां रूप्यकाणां वञ्चनस्याभियोगे द्वौ जनौ निगृहीतौ स्तः। काष्ठमण्डप उपत्यका अपराधानुसन्धान विभागेन बुल्गेरिया देशं प्रति प्रेषणस्य प्रलोभने वित्तवञ्चनाभियोगे सल्यान जनपदस्य शारदा नगरपालिकायाः चतुर्थवडा क्षेत्रस्य द्वात्रिंशत् वर्षीयः दीपेन्द्र कुंवरः, वनगाड कुपिण्डी नगरपालिकायाः अष्टमवडा क्षेत्रस्य चतुर्विंशति वर्षीयः घने बुढा च प्रहरिणा निगृहीतौ स्तः इति ज्ञापितं वर्तते। मध्यपूर्व क्षेत्रे जायमानस्य द्वन्द्वस्य अन्त्याय अमेरिका ईरान देशयोः अधिकारिणां मध्ये उच्चस्तरीया वार्ता प्रचलन्ती वर्तते इति समाचारः।